इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रशासनेन ह्यः नवदिल्ल्यां बालविवाह मुक्ति भारतमिति राष्ट्रियाभियानस्य शुभारम्भो विहितः। अभियानस्यास्य उद्देश्यमस्ति भारतदेशः बालविवाह मुक्तिं राष्ट्रं भवेदिति। महिला बाल विकासमन्त्रिणा अन्नपूर्णा देव्या अभियानस्यास्य शुभारम्भः कुर्वन्त्या प्रोक्तं यत् प्रशासनेन 30,100 जनपदानाम् अभिज्ञानं कृतमस्ति, यत्र अभियानमिदं प्रामुख्येन प्रचालयिष्यते। तयोक्तं यत् बालविवाहः न केवलं एकः अपराधोऽस्ति, अपि तु मानवाधिकाराणाम् उल्लङ्घनम् अपि अस्ति। अन्नपूर्णादेव्या निगदितं यत् बालविवाहमुक्तभारतमिति अभियानं केवलं 10-15 दिवसानाम् आयोजनं नास्ति, परमिदम् अभियानं निरन्तरतायुतः सत्प्रयासो वर्तते इति। झारखण्डमुक्तिमोर्चादलस्य नेता हेमन्तसोरेनः अद्य झारखण्डराज्यस्य मुख्यमन्त्री पदाय शपथग्रहणं करिष्यति। राचीनगरस्य मोहदाबादी उद्याने आयोजिते कार्यक्रमे राज्यपालः सन्तोषकुमारगंगवारः श्रीसोरेनवर्याय पदस्य शपथग्रहणं कारयिष्यति। राचीनगरे पत्रकारैः सह वार्तालापं कुर्वन् हेमन्तसोरेनः उक्तवान् यत् सः प्रधानमन्त्रिणं नरेन्द्रमोदिनं, गृहमन्त्रिणं अमितशाहं च INDIA इति संयुतेः नेतारः समारोहे आमन्त्रितवान्। 81-सदस्यीयविधानसभायां INDIA संयुतिः 45 आसनानि प्राप्तवान्। महाराष्ट्रे सर्वकारनिर्माणार्थं वार्तालापाः प्रचलन्ति। महाराष्ट्रस्य मुख्यमन्त्रिणा शिवसेनानेत्रा च एकनाथशिन्दे इत्यनेन उक्तं यत् राज्यस्य अग्रिममुख्यमन्त्रिविषये भाजपाकेन्द्रीयनेतृत्वस्य निर्णयस्य समर्थनं करिष्यति। ठाणेनगरे वार्ताहरैः सह वार्तालापं कुर्वन् एकनाथशिन्दे नवमुख्यमन्त्रिणः निर्णयः केन्द्रीयमन्त्रिणा अमितशाहेन सह मिलित्वा भविष्यति इति उक्तवान्। राष्ट्रपति द्रौपदी मुर्मुः तमिलनाडुराज्यस्य चतुर्दिवसीययात्रायाः प्रथमे सोपाने ह्यः कोयम्बटूर सम्प्राप्तवती। राष्ट्रपति अद्य वेलिङ्ग्टन् इत्यत्र रक्षासेवासमूहमहाविद्यालयस्य एकस्मिन् कार्यक्रमे भागं भजिष्यति। अत्रावधौ संकायसदस्यानां छात्रसङ्घस्य च अधिकारिणः सम्बोधयिष्यति। तदनु राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे नीलगिर्यां जनजातीयसमुदायैः सह वार्तामपि विधास्यति। पाकिस्ताने खैबर पख्तूनख्वा नगरे द्वयोः समुदाययोः युद्धविरामस्य अनन्तरम् अपि सुन्नीशिया जनजातीनां मध्ये विच्छिन्नसङ्घर्षाः निरन्तरं भवन्ति, यत्र न्यूनातिन्यूनं 10 जनाः मृताः, अन्ये च 21 जनाः घातिताः। वार्तावाहिन्यानुसारि खैबर पख्तूनख्वा प्रान्ते अफगानिस्तान सीम्नी स्थिते कुर्रम मण्डले मंगलवासरे हिंसा अभवत्। कुर्रम मण्डले अलीजाई बागन जनजातीनां मध्ये संघर्षः गतसप्ताहे शुक्रवासरे पाराचिनार नगरस्य समीपे यानानाम् उपरि गुरुवासरे आक्रमणस्य अनन्तरं गतसप्ताहे आरब्धः, यस्मिन् 47 जनाः मृत्युमुपगताः। इजराइल हिजबुल्ला इत्यनयोः मध्ये ऐतिहासिकः युद्धविरामः ह्यः क्रियान्वितः जातः। अयं विरामः मासान् यावत् प्रचलिष्यति, भीषणसङ्घर्षात् अनन्तरं क्रियान्वितो अभवत्। एतस्मिन् सङ्घर्षे 1,000+ जनाः मृताः। भारतीयचतुरङ्गक्रीडकः गुकेश डोम्बराजु ह्यः सिङ्गापुरे विश्वचतुरङ्गप्रतियोगितायाः तृतीयक्रीडायां चीनदेशस्य डिन् लिरिन् इत्यमुं पराजित्य अन्तिमानां 14 क्रीडाशृङ्खलानाम् 1.5 अङ्केन समानं कृतवान् इति वार्ताः।